स्पर्शान् कृत्वा बहिर्बाह्यान् चक्षुश्चैवान्तरे ब्रुवोः प्राणापानौ समो कृत्वा नासाभ्यन्तरचारिणौ यतेन्द्रियमनोबुद्धिः मुनिर्मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः।